श्री सुब्रह्मण्य भुजंग स्तोत्रम् भजेहं कुमारं भवानी कुमारं गलोल्लासिहारं नमत्सद्विहारं त्रिपुस्तोमपारं नृसिंहावतारं सदा निर्विकारं गुहं निर्विचारम् नमामीशपुत्रं जपाशोणगात्रं सुरारातिशत्रुं रवीन्द्वग्निनेत्रम् महाबर्हिपत्रं शिवास्याब्जमित्रं प्रभास्वत्कलत्रं पुराणं पवित्रम् अनेकार्ककोटिप्रभावज्ज्वलन्तम् मनोहारिमाणिक्यभूषोज्ज्वलन्तम् श्रितानामभीष्टं निपान्तं नितान्तं भजे षण्मुखं तं शरच्चन्द्रकान्तम् कृपावारिकल्लोलभास्वत्कटाक्षम् विराजन्मनोहारिशोणाम्बुजाक्षम् प्रयोगप्रदानप्रवाहैकदक्षम् भजे कान्तिकान्तम् परस्तोमरक्षम् सुकस्तूरिसिन्दूरभास्वल्ललाटम् दयापूर्णचित्तम् महादेवपुत्रम् रवीन्दूल्लसद्रत्नराजत्किरीटम् भजे क्रीडिताकाशगङ्गाद्रिकूटम् सुकुन्दप्रसूनावलीशोभिताङ्गम् शरत्पूर्णचन्द्रप्रभाकान्तिकान्तम् शिरीषप्रसूनाभिरामम् भवन्तम् भज देवसेनापतिं वल्लभन्तम् सुलावण्यसत्सूर्यकोटिप्रतीकम् प्रभुं तारकारिं द्विषड्बाहुमीशम् निजार्कप्रभादीप्यमानाखिलाशम् भज पार्वतीप्राणपुत्रं सुकेशम् अजं सर्वलोकप्रियं लोकनाथं गुहं शूरपद्मादिदं भोळिधारम् सुचारुं सुनासापुटं सच्चरित्रं भजे कार्तिकेयं सदा बाहुलेयम् शरारण्यसम्भूतमिन्द्रादिवन्द्यम् द्विषड्बाहुसङ्ख्यायुधश्रेणिरम्यम् मरुत्सारथिं कुक्कुटेशं सुकेतुं भजे योगिहृत्पद्ममध्याधिवासम् विरिञ्चीन्द्रवल्लीशदेवेशमुख्य प्रशस्तामरस्तोमसंस्तूयमाना दिशत्वं दयालो श्रियं निश्चलां मे विना त्वां गतिक्का प्रभो मे प्रसीद पदाम्भोजसेवासमायातवृन्दारकश्रेणिकोटिरभास्वल्ललाटम् कळत्रोल्लसत्पार्श्वयुग्मं वरेण्यम् भजे देवमाद्यन्तहीनप्रभावम् भवाम्भोधिमध्ये तरङ्गे पतन्तम् प्रभो मां सदा पूर्णदृष्ट्या समीक्ष्य भवद्भक्तिनावोद्धरत्वं दयालो सुगच्चन्तरं नास्ति देवप्रसीदा। गले रत्नभूषं तनौ मञ्जुवेशं करे ज्ञानशक्तिं दरस्मे रमास्ये कठिन्यस्तपाणिं शिखिस्थं कुमारं भजेहं गुहादन्यदैवं न मन्ये दयाहीनचित्तं परद्रोहवृत्तिं सदा पापशीलं गुरोर्भक्तिहीनम् अनन्यावलम्बं भवन्नेत्रपात्रं कृपाशीलमाम्भो पवित्रं कुरुत्वम् महासेन गाङ्गेयवल्लीसहाय प्रभो तारकारे षडास्यामरेश सदा पायसान्न प्रियस्त्वं गुहेति स्मरिष्यामि भक्त्या कदाहं विभो त्वाम् प्रतापस्य बाहो न मद्वीरबाहो प्रभो कार्तिकेयेष्टकामप्रदेति यदा ये पठन्ते भवन्तं तदेवं प्रसन्नं सुतोषं बहुश्रीं ददासि अपारातिदारिद्र्यवाराशि मध्ये भ्रमन्तं जनिग्राहपूर्णे नितान्तम् महासेन मामुद्धरत्वं कटाक्षावलोकेन किञ्चित् प्रसीद प्रसीद स्थिरां देहि भक्तिं भवत्पादपद्मे श्रियं निश्चलां देहि मह्यं कुमार गुहं चन्द्रतारं सुवंशाभिवृद्धिं कुरु त्वं प्रभो मे मनः कल्पसाला नमस्ते नमस्ते महाशक्तिपाणे नमस्ते नमस्ते लसद्वज्रपाणे नमस्ते नमस्ते कठिन्यस्तपाणे नमस्ते नमस्ते सदाभीष्टपाणे नमस्ते नमस्ते महाशक्तिधारिन् नमस्ते सुराणां महासौख्यदायिन् नमस्ते सदा कुक्कुटेशोऽग्निकेताः समस्तापराधं विभो मे क्षमस्व कुमारात् परं कर्मयोगं न जाने कुमारात् परं कर्मशीलं न जाने य एको मुनीनां हृदब्जाधिवासः शिवाङ्कं समारुह्य सत्पीठकल्पम् वीञ्चाय मन्त्रोपदेशं चकार प्रमोदेन सोऽयं तनोतु श्रियं मे यमाहुः परं वेदशूरेषु मुख्यं सदा यस्य शक्त्या जगद्भीतभीतम् यमाश्रित्य देवास्थिरं स्वर्गपालाः सदोङ्काररूपं चिदानन्दमीडे गुहस्तोत्रमेतत् कृतं तारकारेर्भुजङ्गप्रजातेन हृद्येन कान्तम् जनाय पठन्ते महाभक्तियुक्ताः प्रमोदेन सायं प्रभाते विशेषः स जन्मर्क्षयोगे यदा ते पठन्ते मनोवाञ्छितान् सर्वकामान् लभन्ते मनोवाञ्छितान् सर्वकामान् लभन्ते इति श्री सुब्रह्मण्य भुजंग स्तोत्रम्।